राघवं दशरथात्मजम् अप्रमेयम् सीतापतिं रघुकुलान्वय रत्नदीपम् आजानुबाहुमरविन्ददलायताक्षम् रामं निशाचर विनाशकरं नमामि वैदेहि सहितं सुरेन्द्रमतले हैमे महामण्डपे मध्ये पुष्पकमासने मणिमये वीरासने सुस्थितम् अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः परम् व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् पार्वत्युवाच श्रोतुमिच्छाम्यहं देव तदेवं सर्वकामदम् नाम्नां सहस्रं रामस्य ब्रूहि यद्यस्ति मे दया श्रीमहादेवौ वाच अथ वक्ष्यामि ते देवि राम नाम सहस्रकम् शृणु चैकमनः स्तोत्रं गुह्या गुह्यतरं महत् अस्य श्रीरामसहस्रनामस्तोत्रमहामन्त्रस्य भगवान् ईश्वर ऋषिः अनुष्टुप् छन्दः श्रीरामः परमात्मा देवता श्रीमान् महाविष्णुरिति बीजम् गुणभृन्निर्गुणो महानिति शक्तिः संसारतारको राम इति मन्त्रः सच्चिदानन्दविग्रह इति कीलकम् अक्षयः पुरुषः साक्षीति कवचम् अजेयः सर्वभूतानाम् इत्यस्त्रम् राजीवलोचनः श्रीमानिति ध्यानम् श्रीरामप्रीत्यर्थे दिव्यसहस्रनामजपे विनियोगः करन्यासः श्रीरामचन्द्रायेत्यङ्गुष्टाभ्यां नमः सीतापतये इति तर्जनीभ्यां नमः रघुनाथायेति मध्यमाभ्यां नमः भरताग्रजायेत्यनामिकाभ्यां नमः दशरथात्मजायेति कनिष्ठिकाभ्यां नमः हनुमत्प्रभवे इति करतलकरपृष्ठाभ्यां नमः एवं हृदयादिन्यासः ध्यानम् विज्ञानहेतुं विमलायताक्षं प्रज्ञानरूपं स्वसुखैकहेतुं श्रीरामचन्द्रं हरिमादिदेवं परात्परं राममहं भजामि तत्त्वस्वरूपं पुरुषं पुराणं स्वतेजसा पूरितविश्वमेकं राजाधिराजं रविमण्डलस्थं विश्वेश्वरं राममहं भजामि स्तोत्रम् राजीवलोचनः श्रीमान् श्रीरामो रघुपुङ्गवः रामभद्रः सदाचारो राजेन्द्रो जानकीपतिः अग्रगण्यो वरेण्यश्च वरदः परमेश्वरः जनार्दनो जितामित्रः परार्थैकप्रयोजनः विश्वामित्रप्रियो दान्तः शत्रुजिच्छत्रुतापनः सर्वज्ञः सर्वदेवादिः शरण्यो वालिमर्दनः ज्ञानभाव्योपरिच्छेद्यो वाग्मी सत्यव्रतः शुचिः ज्ञानगम्यो दृढप्रज्ञः खरध्वंसी प्रतापवान् द्युतिमान् आत्मवान् वीरो जितक्रोधोरिमर्दनः विश्वरूपो विशालाक्षः प्रभुः परिवृढो दृढः ईश खड्गधरः श्रीमान् कौसलेयो न सूयकः विपुलांसो महोरस्कः परमेष्ठी परायणः सत्यव्रतः सत्यसन्धो गुरुः परमधार्मिकः लोकज्ञो लोकवन्द्यश्च लोकात्मा लोककृत्परः अनादिर्भगवान् सेव्यो जितमायो रघुद्वहः रामो दयाकरो दक्षः सर्वज्ञः सर्वपावनः ब्रह्मण्यो नीतिमान् गोप्ता सर्वदेवमयो हरिः सुन्दरः पीतवासाश्च सूत्रकारः पुरातनः सौम्यो महर्षिः कोदण्डी सर्वज्ञः सर्वकोविदः कविः सुग्रीववरदः सर्वपुण्याधिकप्रदः भव्यो जितारि षड्वर्गो महोदारो घनाशनः सुकीर्तिरादिपुरुषः कान्तः पुण्यकृतागमः अकल्मषश्चतुर्बाहुः सर्वावासो दुरासदः स्मितभाषीनुवृतात्मा स्मृतिमान् वीर्यवान् प्रभुः धीरोदान्तो घनश्यामः सर्वायुधविशारदः अध्यात्मयोगनिलयः सुमना लक्ष्मणाग्रजः सर्वतीर्थमयः शूरः सर्वयज्ञफलप्रदः यज्ञस्वरूपी यज्ञेशो जरामरणवर्जितः वर्णाश्रमकरो वर्णी शत्रुजित्पुरुषोत्तमः विभीषणप्रतिष्ठाता परमात्मा परात्परः प्रमाणभूतो दुर्ज्ञेयः पूर्णः परपुरञ्जयः अनन्तदृष्टिरानन्दो धनुर्वेदो धनुर्धरः गुणाकरो गुणश्रेष्ठः सच्चिदानन्दविग्रहः अभिवन्द्यो महाकायो विश्वकर्मा विशारदः विनीतात्मा वीतरागस्तपस्वीशो जनेश्वरः कल्याणप्रकृतिः कल्पः सर्वेशः सर्वकामदः अक्षयः पुरुषः साक्षी केशवः पुरुषोत्तमः लोकाध्यक्षो महामायो विभीषणवरप्रदः आनन्दविग्रहो ज्योतिर्हनुमत्प्रभुरव्ययः भ्राजिष्णुः सहनो भोक्ता सत्यवादी बहुश्रुतः सुखदःकारणं कर्ता भवबन्धविमोचनः देवचूडामणिर्नेता ब्रह्मण्यो ब्रह्मवर्धनः संसारोत्तारको रामः सर्वदुःखविमोक्षकृत् विद्वत्तमो विश्वकर्ता विश्वहर्ता च विश्वकृत् नित्यो नियतकल्याणः सीताशोकविनाशकृत् काकुत्स्थः पुण्डरीकाक्षो विश्वामित्रभयापहः मारीचमथनो रामो विराधवधपण्डितः दुःस्वप्ननाशनो रम्यः किरीटी त्रिदशाधिपः महाधनुर्महाकायो भीमो भीमपराक्रमः तत्त्वस्वरूपी तत्त्वज्ञस्तत्त्ववादी सुविक्रमः भूतात्मा भूतकृत्स्वामी कालज्ञानी महापटुः अनिर्विण्णो गुणग्राही निष्कलङ्कः कलङ्कः स्वभावभद्रः शत्रुघ्नः केशवस्थानुरीश्वरः भूतादिशम्भुरादित्यस्थविष्ठः शाश्वतो ध्रुवः कवची कुण्डली चक्री खड्गी भक्तजनप्रियः अमृत्युर्जन्मरहितः सर्वजित् सर्वगोचरः अनुत्तमो प्रमेयात्मा सर्वादिर्गुणसागरः समः समात्मा समगो जटामुकुटमण्डितः अजेयः सर्वभूतात्मा विश्वक्सेनो महातपाः लोकाध्यक्षो महाबाहुरमृतो वेदवित्तमः सहिष्णुः सद्गतिः शास्ता विश्वयोनिर्महाद्युतिः अतीन्द्र ऊर्जितः प्रांशुरुपेन्द्रो वामनो बली धनुर्वेदो विधाता च ब्रह्मा विष्णुश्च शङ्करः हंसो मरीचिर्गोविन्दो रत्नगर्भो महामतिः व्यासो वाचस्पतिः सर्वदर्पितासुरमर्दनः जानकी वल्लभः पूज्यः प्रकटः प्रीतिवर्धनः सम्भवोतीन्द्रियो वेद्यो निर्देशो जाम्बवत्प्रभुः मदनो मथनो व्यापी विश्वरूपो निरञ्जनः नारायणो ग्रणिः साधुर्जटायुः प्रीतिवर्धनः नैकरूपो जगन्नाथः सुरकार्यहितस्वभूः जितक्रोधो जितारातिः प्लवगाधिपराज्यदः वसुधः सुभुजो नैकमायो भव्यप्रमोदनः चण्डांशुः सिद्धिदः कल्पः शरणागतवत्सलः अगदोरोगहर्ता च मन्त्रज्ञो मन्त्रभावनः सौमित्रिवत्सलो धूर्यो व्यक्ताव्यक्तस्वरूपधृक् वसिष्ठो ग्रामणि श्रीमान् अनुकूलप्रियं वदः अतुलः सात्विको धीरः शरासनविशारदः ज्येष्ठः सर्वगुणोपेतः शक्तिमान्स्ताटकान्तकः वैकुण्ठप्राणिणां प्राणः कमठः कमलापतिः गोवर्धनधरो मत्स्यरूपः कारुण्यसागरः कुम्भकर्ण प्रभेता च गोपी गोपाल संवृतः मायावी व्यापको व्यापी रैणुकेय बलापहः पिनाकमथनो वन्द्यः समर्थो गरुडध्वजः लोकत्रयाश्रयो लोकचरितो भरताग्रजः श्रीधरः सद्गतिर्लोकसाक्षी नारायणो बुधः मनोवेगी मनोरूपी पूर्णः पुरुषपुङ्गवः यदुश्रेष्ठो यदुपतिर्भूतावासः सुविक्रमः तेजोधरो धराधारश्चतुर्मूर्तिर्महानिधिः चाणूरमर्दनो दिव्यः शान्तो भरतवन्दितः शब्दातिगो गभीरात्मा कोमलाङ्गः प्रजागरः लोकगर्भशेषशायी क्षीराब्धिनिलयो मलः आत्मयोनिरदीनात्मा सहस्राक्षः सहस्रपात् अमृतांशुर्महागर्भो निवृत्तविषयस्पृहः त्रिकालज्ञो मुनिः साक्षी विहाय सगतिकृति पर्जन्यः कुमुदो भूतावासः कमललोचनः श्रीवत्सवक्षा श्रीवासो वीरः लक्ष्मणाग्रजः लोकाभिरामो लोकारिमर्दनः सेवकप्रियः सनातनतमो मेघश्यामलो राक्षसान्तकृत् दिव्यायुधधरः श्रीमान् अप्रमेयो जितेन्द्रियः भूदेव वन्द्यो जनकप्रियकृत्प्रपितामहः उत्तमः सात्विकः सत्यः सत्यसन्धस्त्रिविक्रमः सुव्रतः सुलभः सूक्ष्मः सुघोषः सुखदः सुधीः दामोदरोच्युतः शार्ङ्गी वामनो मधुराधिपः देवकी नन्दनः शौरिः शूरः कैटभमर्दनः सप्ततालप्रभेत्ता च मित्रवंशप्रवर्धनः कालस्वरूपी कालात्मा कालः कल्याणदः कविः संवत्सरऋतुः पक्षो ययनम् दिवसो युगः स्तव्यो विविक्तो निर्लेपः सर्वव्यापी निराकुलः अनादिनिधनः सर्वलोकपूज्यो निरामयः रसोरसज्ञः सारज्ञो लोकसारो रसात्मकः सर्वदुःखातिगो विद्याराशिः परमगोचरः शेषो विशेषो विगतः कल्मषो रघुनायकः वर्णश्रेष्ठो वर्णवाह्यो वर्ण्यो वर्णगुणोज्ज्वलः कर्मसाक्ष्यमरश्रेष्ठो देवदेवः सुखप्रदः देवाधिदेवो देवर्षिर्देवासुरनमस्कृतः सर्वदेवमयश्चक्री शार्ङ्गपाणी रघुत्तमः मनोबुद्धिरहङ्कारः प्रकृतिः पुरुषो व्ययः अहल्यापावनः स्वामी पितृभक्तो वरप्रदः न्यायो न्यायी नयी श्रीमान्नयो नगधरो ध्रुवः लक्ष्मी विश्वम्भरा भर्ता देवेन्द्रो बलिमर्दनः वाणारिमर्दनो यज्वानुत्तमो मुनिसेवितः देवाग्रणिः शिवध्यानतत्परः परमःपरः सामगेयः प्रियो क्रूरः पुण्यकीर्तिः सुलोचनः पुण्यः पुण्याधिकः पूर्वः पूर्णः पूरयिता रविः जटिलः कल्मषध्वान्तप्रभञ्जनविभावसुः अव्यक्तलक्षणो व्यक्तो दशास्य द्विपकेसरी कलानिधि कलानाथो कमलानन्दवर्धनः जयी जितारिः सर्वादिशमनो भवभञ्जनः अलङ्करिष्णुरचलो रोचिष्णुर्विक्रमोत्तमः आशुः शब्दपतिः शब्दागोचरो रञ्जनो रघुः निशब्दः प्रणवो माली स्थूलः सूक्ष्मो विलक्षणः आत्मयोनिरयोनिश्च सप्तजिह्वः सहस्रपात् सनातनतमस्रग्वीपेशलोजविनाम्बरः शक्तिमान् शङ्खबृन्नाथः गदा पद्मरथाङ्गभृत् निरीहो निर्विकल्पश्च चिद्रूपो वीतसाध्वसः शताननः सहस्राक्षः शतमूर्तिर्धनप्रभः हृत्पुण्डरीकशयनः कठिनो द्रवयेव च उग्रो ग्रहपतिः श्रीमान् समर्थो नर्थनाशनः अधर्मशत्रुरक्षोघ्नः पुरुहूतः पुरुष्टुतः ब्रह्मगर्भो बृहद्गर्भो धर्मधेनुर्धनागमः हिरण्यगर्भो ज्योतिष्मान् सुललाटः सुविक्रमः शिवपूजारतः श्रीमान् भवानी प्रियकृद्वशी नरो नारायणः श्यामः कपर्दी नीललोहितः रुद्रः पशुपतिस्थानुर्विश्वामित्रो द्विजेश्वरः मातामहो मातरिश्वाविरिञ्चो विष्टरश्रवाः अक्षोभ्यः सर्वभूतानां चण्डः सत्यपराक्रमः वालखिल्यो महाकल्पः कल्पवृक्षः कलाधरः निदाघस्तपनो मोघः श्लक्ष्णः परबलापहृत् कबन्धमथनो दिव्यः कम्बुग्रीव शिवप्रियः शङ्खो नीलः सुनिष्पन्नः सुलभः शिशिरात्मकः असंसृष्टोऽतिथिः शूरः प्रमाथी पापनाशकृत् वसुश्रवः कव्यवाह प्रतप्तो विश्वभोजनः रामो नीलोत्पलश्यामो ज्ञानस्कन्धो महाद्युतिः पवित्रपादः पापारिर्मणिपूरो नभो गतिः उत्तारणो दुष्कृतिः दुर्धर्षो दुःसहो भयः अमृतेशो मृतवपुर्धर्मी धर्मः कृपाकरः भर्गो विवस्वानादित्यो योगाचार्यो दिवस्पतिः उदारकीर्तिरुद्योगी वाङ्मयः सदसन्मयः नक्षत्रमालीनाकेशस्वाधिष्ठानः षडाशयः चतुर्वर्गफलो वर्णी शक्तित्रयफलं निधिः निधानगर्भो निर्व्याजो गिरीशो व्यालमर्दनः श्रीवल्लभः शिवारम्भः शान्तिर्भद्रः समञ्जसः भूषयो भूतिकृद्भूतिर्भूषणो भूतवाहनः अकायो भक्तकायस्थः कालज्ञानी महावटुः परार्थवृत्तिरचलो विविक्तश्रुतिसागरः स्वभावभद्रो मध्यस्थः संसारभयनाशनः वेद्यो वैद्यो वियद्गोप्ता सर्वामरमुनीश्वरः सुरेन्द्रः करणं कर्म कर्म कृत्कर्म्यधोक्षजः ध्येयो धुर्योधराधीशः सङ्कल्पः शर्वरीपतिः परमार्थगुरुर्वृद्धः शुचिराश्रितवत्सलः विष्णुर्जिष्णुर्विभुर्वन्द्यो यज्ञेशो यज्ञपालकः प्रभविष्णुर्ग्रसिष्णुश्च लोकात्मा लोकभावनः केशवः केशिहा काव्यः कविः कारणकारणम् कालकर्ता कालशेषो वासुदेवः पुरुष्टुतः आदिकर्ता वराहश्च माधवो मधुसूदनः नारायणो नरो हंसो विश्वक्सेनो जनार्दनः विश्वकर्ता महायज्ञो ज्योतिष्मान् पुरुषोत्तमः वैकुण्ठः पुण्डरीकाक्षः कृष्णः सूर्यः सुरार्चितः नारसिंहो महाभीमो वक्रदंष्ट्रो नखायुधः आदिदेवो जगत्कर्ता योगीशो गरुडध्वजः गोविन्दो गोपतिर्गोप्ता भूपतिर्भुवनेश्वरः पद्मनाभो ऋषिकेशो धाता दामोदरः प्रभुः त्रिविक्रमस्त्रिलोकेशो ब्रह्मेश प्रीतिवर्धनः वामनो दुष्टदमनो गोविन्दो गोपवल्लभः भक्तिप्रियोच्युतः सत्यः सत्यकीर्तिर्धृतिस्मृतिः कारुण्यं करुणो व्यासः पापः शान्तिवर्धनः सन्यासी शास्त्रतत्त्वज्ञो मन्दराद्रिनिकेतनः बदरीनिलयः शान्तस्तपस्वी वैद्युतप्रभः भूतावासो गुहावासः श्रीनिवासः श्रियःपतिः तपोवासो मुदावासः सत्यवासः सनातनः पुरुषः पुष्करः पुण्यः पुष्कराक्षो महेश्वरः पूर्णमूर्ति पुराणज्ञ पुण्यद प्रीतिवर्धनः शंखी चक्री गदी शार्ङ्गी लांगली मुसली हली किरीटी कुंडली हारी मेखली कवची ध्वजी योद्धा जेता महावीर्य शत्रुजिच्छत्रुतापनः शास्ता शास्त्रकरः शास्त्रं शंकरः शंकरस्तुतः सारथि सात्विक स्वामी सामवेद प्रियः समः पवन संहत शक्ति संपूर्णांग समृद्धिमान स्वर्गद कामद श्रीध कीर्तिदो कीर्तिनाशनः मोक्षद पुंडरीकाक्ष क्षीराधिकृतकेतनः सर्वात्मा सर्वलोकेश प्रेरक पापनाशनः सर्वव्यापी जगन्नाथ सर्वलोकमहेश्वरः सर्गस्थित्यंत कृद्देव सर्वलोक सुखावहः अक्षय्य शाश्वतोऽनन्त क्षय वृद्धि विवर्जितः निर्लेपो निर्गुणः सूक्ष्मो निर्विकारो निरञ्जनः सर्वोपाधि विनिर्मुक्तः सत्ता मात्र व्यवस्थितः अधिकारी विभुर्नित्य परमात्मा सनातनः अचलो निर्मलो व्यापी नित्य तृप्तो निराशयः श्यामो युवालोहिताक्षो दीप्तास्योमित भाषणः आजानुबाहु सुमुख सिंहस्कंधो महाभुजः सत्यवान् गुण संपन्न स्वयं तेजासुदीप्तिमान् कालात्मा भगवान् काल कालचक्र प्रवर्तकः नारायण परं ज्योति परमात्मा सनातनः विश्वसृद् विश्वगोप्ता च विश्वभोक्ता च शाश्वतः विश्वेश्वरो विश्वमूर्तिर्विश्वात्मा विश्वभावनः सर्वभूतसुहृच्छान्तः सर्वभूतानुकम्पनः सर्वेश्वरेश्वरः सर्वश्रीमानाश्रितवत्सलः सर्वगः सर्वभूतेशः सर्वभूताशयस्थितः अभ्यन्तरस्थस्तमसश्चेता नारायणः परः अनादिनिधनस्रष्टा प्रजापतिपतिर्हरिः नरसिंहो ऋषिकेशः सर्वात्मा सर्वदृग्वशी जगतस्तस्थुषश्चैव प्रभुर्नेता सनातनः कर्ता धाता विधाता च सर्वेषां प्रभुरीश्वरः सहस्रमूर्तिर्विश्वात्मा विष्णुर्विश्वदृगव्ययः पुराणपुरुषः स्रष्टा सहस्राक्षः सहस्रपात् तत्त्वं नारायणो विष्णुर्वासुदेवः सनातनः परमात्मा परं ब्रह्म सच्चिदानन्दविग्रहः परं ज्योतिः परं धाम पराकाशः परात्परः अच्युतः पुरुषः कृष्णः शाश्वतः शिव ईश्वरः नित्यः सर्वगतस्थानुरुग्रः साक्षी प्रजापतिः हिरण्यगर्भः सविता लोककृल्लोकभृद्विभुः राम श्रीमान् महाविष्णुर्जिष्णुर्देवहितावहः तत्त्वात्मा तारकं ब्रह्म शाश्वतः सर्वसिद्धिदः अकारवाच्यो भगवान् श्रीर्भूलीलापतिः पुमान् सर्वलोकेश्वरः श्रीमान् सर्वज्ञः सर्वतोमुखः स्वामी सुशीलः सुलभः सर्वज्ञः सर्वशक्तिमान् नित्यः सम्पूर्णकामश्च नैसर्गिकसुहृत्सुखी कृपापीयूष जलधिः शरण्यः सर्वदेहिनाम् श्रीमान्नारायणः स्वामी जगतां पतिरीश्वरः श्रीशः शरण्यो भूतानां संश्रिताभीष्टदायकः अनन्त श्रीपतिरामो गुणभृन्निर्गुणो महान् इति श्रीरामसहस्रनामस्तोत्रम् सम्पूर्णम्।